ॐ श्रीगुरुभ्यो नमः हरिः ॐ हिरण्यवर्णाशुचयः पावकाया सुजातः कश्यपो यास्विन्द्रः अग्नीया गर्भं दधिरे विरूपास्तान आपश्यगस्यो न भवन्तु या सागुं राजा वरुणो याति मध्ये सत्या हृते अवपश्यन् जनानां मधुश्च्युतश्चुचयो याः पावकास्तान आपश्यगस्यो न भवन्तु यासान् देवादिविकृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति याः पृथिवीं पयसों दन्ति शुक्रास्तान आपश्यगस्यो न भवन्तु शिवेन मा चक्षुषा पश्यत पश्शिवया तनुवोपस्पृशत त्वचं मे सर्वागुम् अग्नेगुम् रप्सुषदो हुवे वो महिवर्चो बलमोजो निधत्ता पवमानः सुवर्जनः पवित्रेण विचर्षणिः यः पोता स पुनातु मा पुनन्तु मा देवजनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जातवेदः पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदीद्यद् आग्ने क्रत्वा क्रतु गुम्रनु यत्ते पवित्रमर्चिषि अग्ने विदतमन्तरा ब्रह्मतेन पुनीमहे उभाभ्यां देवसवितः पवित्रेण सवेन च इदं ब्रह्म पुनीमहे वैश्वदेवी पुनति देव्यागात् यस्यै बह्वीस्तनुवो वीतपृष्ठाः तया मदन्दः सधमाद्येषु वयग्स्यामपतयोरयीणां वैश्वानरो रश्मिभर्मा पुनातु वादः प्राणेन शिरोमयो भूः द्यावा पृथिवी पयसापयोभिः ऋतावरी यज्ञिये मा पुनीताम् बृहद्भिः सवितस्त्रिभिः वर्षिष्ठैर्देवमन्मभिः अग्ने दक्षैः पुनाहि मा येन देवा अपुनता येनापो दिव्यङ्गशः तेन दिव्येन ब्रह्मणा इदं ब्रह्म पुनीमहे यः पावमानीरध्येति ऋषिभिः सभृतगुं रसम् सर्वगुं सपूतमश्नाति स्वदितं मातरिश्वना पावमानीर्यो अध्येति ऋषिभिः सभृतगुं रसम् तस्मै सरस्वती दुहे क्षीरगुं सर्पिर्मधूतकम् पावमानी स्वस्त्ययनीः सुदुघाहि पयस्वतीः ऋषिभिः सम्भृतो रसः ब्राह्मणेष्वमृतगुं हितम् पावमानीर्दिशन्तु नः इमं लोकमथो अमुं कामान् समर्थयन्धुनः देवैः समाभृताः पावमानी स्वस्त्ययनीः सुदुघाहि घृतश्च्युतः ऋषिभिः सम्भृतो रसः ब्राह्मणेष्वमृतगुं हितं येन देवाः पवित्रेण आत्मानं पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यं पवित्रं सतोद्यामगुं हिरण्मयं तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे इन्द्रः सुनीति सह मा पुनातु सोमस्वस्त्या वरुणः समीच्या यमो राजा आः प्रवृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छन्योरावृणीमहे गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्तिः ॐ हरिः ॐ।